सर्वं ज्येष्ठराजं ब्रह्मणा ब्रह्मणस्पतः शृण्वन् ज्योतिभिस्सेदु सादरम् प्रणो देवी सरस्वती यदायुः स्वस्ति न इन्द्रो वृत्रश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति न साक्षो हरिष्यनेमहि स्वस्ति नो बृहस्पतिर्दधातु ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं कर्तासि त्वमेव केवलं कर्तासि त्वमेव सर्वं कल्पितं ब्रह्मासि त्वं साक्षादात्मासि नित्यं घृतं वच्मि सत्यं वच्मि अवत्वं माम् अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानुजानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोधराताच अवदक्षिणातात् अवचोद्वातात् अवाधराताच सर्वतो माम् पाहि पाहि समन्ता त्वं वाङ्मयस्त्वं चिन्मयः त्वं मानन्दमयस्त्वं ब्रह्ममयः त्वं सच्चिदानन्दाद्वितीयोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि सर्वं जगदिदं तत्तो जायते सर्वं जगदिदं तत्तसृष्यति सर्वं जगदिदं त्वयिनयमेष्यति सर्वं जगदिदं त्वयि प्रज्ञेति त्वं भूमिरापो नलो निलो नवः त्वं चत्वारि वा प्रदानि त्वं गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वं देहत्रयातीतः त्वं कालत्रयातीतः त्वं मूलाधारस्थितोऽसि नित्यं त्वं शक्तित्रयात्मकः त्वां योगिनो जायन्ति नित्यं त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवस्वरो गणादे पूर्वमुच्चार्य वर्णादे सदनन्तरम् अनुश्वारः परतरः अग्रे दुरसितं तारेण रिक्तम् एतत्तममनुस्वरूपं गतारपूर्वरूपम् अकारो मध्यमरूपम् अनुश्वारश्चान्त्यरूपम् बिन्दुरुत्तररूपम् नागसन्दानम् सतम् हिता सन्धिः सैषा गणेश विद्या गणक ऋषिः निश्चित् गायत्री छन्दः गणपतिर्देवता ॐ गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् एकदन्तं चतुर्हस्तं पाशमं कृशकारिणं रथं च वरदं हस्ते विप्राणं मूषकत्वजं रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससं रक्तकन्दानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितं भक्तानुकम्पितं देवं जगत्कारणमर्चितम् आविर्भूतं शिष्यानौ प्रकटे पुरुषात् परम् एवं ध्यायति यो नित्यं स योगी योगिनां परः नमो व्रातपतये नमो गणपतये नमः प्रमतपतये नमस्ते अस्तु लम्भोदराय एकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः
सर्वं प्रचोदयात्। प्रेम से बोलो एक बार साईं राम। Thank you. सदगुरु साईं स्मरण करो। सोहम जान धरो सदगुरु
Oh, Radhe
शिवाय
Thank you. ஆயம் பஞ்சநாத சுப்பிரமணியம் சுப்பிரமணியம் கரகர சுப்பிரமணியம் சுப்பிரமணியம் கரகர கிருஷ்ண சுப்பிரமணியம் 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 சந்திரநாத சுப்பிரமணியம் 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 சந்திரநாத சுப்பிரமணியம் 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 சுப்பிரமணியம்
Thank you. Paramatma Ishvara Once two friends were walking through the forest. They knew that anything dangerous could happen to them at any time in the forest. So they promised each other that they would remain united in any case of danger. Suddenly, they saw a large bear approaching them. One of the friends at once climbed a nearby tree, but the other one did not know how to climb. So being led by his common sense, he lay down on the ground, breathless, pretending to be a dead man. The bear came near the man lying on the ground. It smelt in its ears and slowly left the place, because bears do not touch dead creatures. Now, the friend on the tree came down and asked his friend on the ground, "Friend, what did the bear tell you in your ears?" The other friend replied, "The bear advised me not to believe a false friend." The moral of this story is that a true friend is someone who always supports and stands by you in any situation. We should always try and be that true friend. Sayonara.